ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः विभूतियोगम्। श्रीभगवानुवाच। भूय एव महाबाहो शृणु मे परमं वच। दत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकं मया। न मे विदुसुरगणा प्रभवं न महर्षय। अहं आदिहृदेवानां महर्षीणं च सर्वसा जो मंगजं अनादिं च वेत्ति लोको महेश्वरं। असंगूढसमर्थेषु सर्वपापै प्रमुच्यते। बुद्धिर्ज्ञानं असम्मोह क्षमा सत्यं तमः समं। सुखं दुःखं बभूवावो भयं चाभयमेव च। अहिंसा समता तुष्टि तपोदानं यशोजसा। भवन्ति भावभूतानां मत्त एव पृथक्विधा। महर्षय सप्त पूर्वे चत्वारो मनवस्तथा। मत्भावा मानसा जाता ये संलोको इमां प्रजाः। एतं विभूतियोगं च मम जो वेति तत्त्वतां। शोभिकम्पेन योगेन युज्यते नात्र संशयम्। अहं सर्वस्य प्रभवो मत्त सर्वं प्रवर्तते। इति मत्वा वदन्ते मां भूताभावसमन्विता। मच्चिता मद्गतप्राणा बोधयन्तः परस्परं। कथयन्तः समाङ्गित्यं तुष्यन्ति च रमन्ति च। तेषां सततयुक्तानां भजतं प्रीतिपूर्वकं। ददामि बुद्धियोगं तं येन मामुपदन्ति ते। तेषामेवानुपं पार्थ महामज्ञानयन्तमां। नाशयं मं त्वभावस्तु ज्ञानदीपेन भस्वता। अर्जुन उवाच। परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुम्। आहुः साधुषयः सर्वे देवर्षे नारदस्तथा। असितो देवलोकासां स्वयं चैव ब्रवीष्यमि। सर्वमेतदृतं मन्ये जन्मं वदसि केशव। न हि ते भगवन् व्यक्तिं विदुर्देवान् मानवा। स्वयमेवात्मनात्मानं व्यक्तत्वं पुरुषोत्तमं। भूतभावनभूतेशं देवदेव जगत्पते। भक्तुर्महर्षशेषेण दिव्यात्मविभूतया जाभिर्विभूतिभिर्लोकान् इमं सञ्जाप्यतीशसि। कथमपि जामहं योगिं त्वं सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्तोऽसि भगवन् मया। विस्तरेण मनोयोगं विभूतिं च जनार्दनं। भूयः कथयदोक्तैः शृण्वन्तो नास्ति मे वृतम्। श्रीभगवानुवाच। हन्त ते कथयिष्यामि दिव्याहात्मविभूतया। प्राधान्यतः कुरु श्रेष्ठ नश्यन्तो विचरश्च मे। अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः। अहम् आदिश मध्यं च भूतानम् अन्त एव च। आदित्यानम् अहं विष्णुं ज्योतिषं रविरं सुवान्। मरीचिर्मरुतामस्मि नक्षत्राणम् अहं शशि। वेदानं सामवेदोऽस्मि। देवानं अस्मि वासवान्। इन्द्रियाणं मनश्चास्मि। भूतानं अस्मि चेतनां। रुद्राणं शङ्करश्चास्मि। वित्तेषु चक्षरक्षसां। वसूनं पावकश्चास्मि। मेरुशिखरिणामहं। पुरोधशं च मुक्तं मां विधिपार्थ बृहस्पतिं। सेनानीनम् अहं स्कन्दं सरसं अस्मि जागरं। महर्षीणं भृगुरहं गीरामस्मै गवक्षरं। Jagyanam Japajagyosmim Stavaranam Himalayam Asvatha Sarva Vrukshanam Devarshinam Charadam Gandharvanam Chitraratha Siddhanam Kapilo Munihim Ucchaisava Samaswanam Vidhimam Amrutodbhavam Airavatanga Jendranam Naranam Chanaradipam Ayudhanam Aham Vajram Denunam Asmikamadhu Prajana Chasmikam Darpam Sarpanam Asmivasuki Ananta Chasminaganam Varuno Jadasavaham Pitrunam Arjama Chasmim Jamasam Jamatamaham Prahlada Chasmi Daitanam Kalah Kalayatavaham Mruganam Chamrugendruham Vainateya Chapakhinam Pavanah Pavatangasmim Ramasasrabhudavaham Jasanam Magarashasmim Srutasam Asmi Jannavim Sarganam Adirantascham Maddam Chaivaham Arjunam Adhyatma Vida Vidyanam Vada Prabhatatavaham Akharanam Akarusvim Dandasamasikaishyajam Ahami Bhakshayakalo Dataham Vishwatumukam Mrityuh Sarvaharaschaham Udbhavaishavabhishyatam Kirtih Sarvakshanarinam Smutirvidadrutityam Ruhatsamam Tathasamnam Gayatri Chandasamaham Masanam Margasishuham Rutunam Kusumankaram Dyutam Chalayatangasmim Tejas Tejasmiramaham Jayosmi Vyavasayosmim Sattvam Sattvavatamaham Vrusinam Vasudevasmim Pandavanandananjayam Muninam Akkahamjasa Kavinam Kusanahkavim Dandodamiyatangasmim Nitirasmim Jigishatam Maunam Chayivasmi Guyyanam Jnanam Jnanapadamaham Charchapi Sarvabhutanam Bijam Tadaham Arjunam Nantadasi Vinajasyam Mayyabhutam Characharam Nantosi Mama Divyanam Vibhutinam Parantapam Esatu Desata Prokto Vibhuter Vistarumayam Jachat Vibhuti Vasattam Srimadurjitamevava Tatta Deva Bhagachattvam Mamate Junsa Sambhavam Athava Pahuneitenam Kingyante Rantavajunam Vishtavvaham Idam Krishnam Ekam Sena Sito Jagat Om Tatsaditi Srimad Bhagavad Gita Upanishatsu Brahma Vidyayam Yoga Sase Sri Krishna Arjuna Sambade Vibhuti Yoga Namanda Samodhyayah Om Sri Krishna Arpanamasu Subham Bhavatu Subham Bhavatu Subham Bhavatu